ભગવાન વાચે માયા શક્ત મનાપાર્થ યોગમ યુંજન મદાશ્રય અસંશયમ સમગ્રમ યથા જ્ઞાસસીતશ્રીનુ જ્ઞાનં દેહં સવિજ્ઞાનં ઇદં વક્ષ્યામ્યશેષતઃ યજ્ઞાત્વાનેહ ભૂયુન્યન જ્ઞાતવ્યં ભવશિષ્યતે મનુષ્યાણાં સહસ્રેષુ કશ્ચિદ યતતે સિદ્ધયે યતતામપિ સિદ્ધાનાં કશ્ચિન માં વેતિ તત્વતઃ ભૂમિરાપો નલો વાયો ખં મનો બોધિરેવ છે અહંકાર ઇતિયં મે ભિન્ન પ્રકૃતિરસ્તધા પરેયં ઇતસ્તન્યાં પ્રકૃતિમ વેધિ મે પરાં જીવભૂતાં મહાબાહો યેદં ધાર્યતે જગત નિભૂતાનિ સર્વાણિ દ્યોપધારય અહં કૃષ્ણસ્ય જગતઃ પ્રભવઃ પ્રલયસ્તથા પરતરં નાન્યત્ કિંચિદસ્તે ધનંજય મયિ સર્વં ઇદં પ્રોતં શૂદ્રમણિગણાઇવ સોહં આપ્સુ કૌંતેય પ્રભાસ્મિ શશિ સૂર્યયો પ્રણવ સર્વ વેદેષુ શબ્દખે પૌરુષં મૃષુ ગંધ પૃથિવ્યાં જે તેજશ્ચાસ્મિ વિભાવસો જીવનં સે भूतेषु तपश्चास्मि तपस्विषु। बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धिमता अस्मि तेजस्तेजस्विनामहम्। बलं बलवतां चाहं कामराग विवर्जितं। धर्माविरुद्धो भूतेषु कामोऽस्मि धरतर्षभ। चैव सात्विका भावा राजसास्तामसास्ये मत्त एवेति तान्विधि न त्वहं ते सर्वं इदं जगत् मोहितं नाभि जानाति माम् एभ्य परम् अव्ययम्। देवी एषा गुणमयी मम माया दुरत्यया माम् एव ये प्रपद्यन्ते मायामेतां तरन्ति ते। कृतिनो मूढ़ा प्रपर्यन्ते नराधमा मायया पहरित ज्ञाना आसुरं भावं दुर्विधा भजन्ते मां जनः सुकृतिनार्जुन। आर्तजिज्ञासुरर्थार्थे ज्ञानी च भरतर्षभ। तेषां ज्ञानी नित्ययुक्ता एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम सर्व एवे ज्ञानी त्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवान्नुत्तमां गतिम्। बहूनां जन्मनामन्दे ज्ञानवान् मां प्रपद्यते वासुदेव सर्वम् इति स महात्मा सुदुर्लभः। कामैस्तैस्तैर्हृतज्ञाना प्रपद्यन्ते न्यदेवता तं तं यमं आस्थाय प्रकृत्या नियता स्वया। यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति तस्य तस्याचलां श्रद्धां तामेव वेदधाम्यहम्। श्रद्धया युक्त तस्याराधनम् इहते लभते च ततः कामान् मयैव विहिता। अन्तवतु फलं तेषां तद्भवत्यल्पमेधशां देवान् देवयजो यान्ति मद्भक्तायान्ति माम् अपि। अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः परं भावं जानन्तो ममाव्ययम् अनुत्तमम्। नाहं प्रकाशः सर्वस्य योगमया समावृतः मूढोऽयं नाभिजानाति लोकमामजम् अहं समतीतानि वर्तमानानि चार्जुन भविष्यानि च भूतानि मां द्वेद न कश्चन। द्वेष समूर्धेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहम् सर्गयान्ते परन्तप येषां त्वन्तर्गतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता मामाश्रित्य यतन्ति ये ते ब्रह्मतद्विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् साधिभूताधिदैवं मां साधियज्ञं जये विदुः प्रयाणकालेऽपि च मां ते विदुर्यो श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णअर्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः।